यदि एक तुच्छ जीवो अपरिणामी तदा होदि अपरिणमन्तं हि स्वयं जीवे कोहादि भावे संसारस्य अभावो पतज्यदि शङ्ख समौ।